इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः आदौ मुख्याः वार्ताः प्रधानमन्त्री रविवासरे तृतीयवारं भारतस्य प्रधानमन्त्री रूपेण शपथवचनं स्वीकरिष्यति भारतीय ऋतुविज्ञान विभागेन आगामि चतुर्षु दिवसेषु पूर्व भारते उत्तरप्रदेशे मध्यप्रदेशस्य केषुचित् क्षेत्रेषु ऊष्मतरंग प्रवाहः सम्भावितः अपि च क्रीडावार्तासु अमन सहरावतेन हंगरीदेशे बुडापेस्ट रैंकिंग सीरीज इत्यस्यां स्पर्धायां रजत पदकं विजितम् अथ वार्ताः विस्तरेण राष्ट्रिय जनतांत्रिक ग्रन्थि बन्धनम् एनडीए इत्यस्य संसदीय दलस्य उपवेशने अद्य नरेन्द्र मोदी वर्यः संसदीय दलस्य नेता विचितः भारतीय जनता पार्टी इति दलस्य वरिष्ठ नेता केन्द्रीय मन्त्री च राजनाथ सिंहः अद्य एनडीए संसदीय दलस्य नेत्री रूपेण नरेन्द्र मोदिनः नाम्नः प्रस्तावनम् उपस्थापयत् राजनाथ सिंहस्य प्रस्तावस्य केन्द्रीय मन्त्री अमित शाहः नितिन गडकरी टीडीपी प्रमुखः चन्द्रबाबू नायडू जेडीयू अध्यक्षः बिहारस्य मुख्यमंत्री च नीतीश कुमारः एनडीए ग्रन्थि बन्धनस्य सर्वाणि घटक दलानि च समर्थनं कृतवन्तः श्रीमोदिनः नाम्नः प्रस्तावम् उपस्थापयन् राजनाथ सिंहः प्रोक्तवान् यत् सः अस्मै पदाय सर्वथोपयुक्तः अस्ति सः अकथयत् यत् इदं ग्रन्थिबन्धनम् अस्माकं प्रतिबद्धतायाः परिणामः अस्ति प्रस्तावं समर्थयन् केन्द्रीय मन्त्री अमितशाहः प्रोक्तवान् यत् एषा न केवलं एनडीए संसदीय दलोपवेशने उपस्थितानां नेतृणाम् अपि तु अस्य देशस्य चत्वारिंशदधिकैक कोटि जनानां समीहा वर्तते भाजपादलस्य वरिष्ठ नेता केन्द्रीय मन्त्री नितिन गडकरी प्रोक्तवान् यत् प्रधानमन्त्री मोदी इदं सुनिश्चेतुं पूर्ण समर्पण भावेन सः कार्यम् अकरोत् यत् देशः समृद्धः शक्ति सम्पन्नश्च भवेत् प्रधानमन्त्री नरेन्द्र मोदी केन्द्रीय मन्त्री पीयूष गोयलः अनुराग सिंह ठाकुरः एलजेपीआर प्रमुखः चिराग पासवानः एनसीपी नेता अजित पवारः आरएलडी प्रमुखः जयंत चौधरी जनसेना प्रमुखः पवन कल्याणः अपना दलस्य नेत्री अनुप्रिया पटेल जन एस नेता एचडी कुमारस्वामी अन्ये नेतारा च अस्मिन् उपवेशने उपस्थिता आसन् भाजपादलस्य वरिष्ठ नेता श्री नरेन्द्र मोदी वर्यः रविवासरे तृतीयवारं प्रधानमन्त्रिपदस्य शपथवचनं स्वीकरिष्यति शपथग्रहण समारोहः सायं षड्वादने राष्ट्रपति भवने भविष्यति केन्द्रीय मन्त्री प्रह्लाद जोशी अद्य नवदिल्ल्यां एनडीए संसदीय दलस्य उपवेशनावधौ इदं संसूचितवान् राष्ट्रपति द्रौपदी मुर्मू वर्यया नरेन्द्र मोदिने तस्य नवनिर्वाचित सर्वकराय च शपथवचनं ग्राहयिष्यते युक्रेनस्य राष्ट्रपतिः व्लामिदिर जेलेंसी प्रधानमन्त्रिणे नरेन्द्र मोदिने युक्रेन यात्रायाः निमन्त्रणम् अयच्छत् एतत् निमन्त्रणं द्वयोर्मध्ये दूरभाषमाध्यमेन जाते परस्पर संवाद समये समागतम् सहैव जेलेंस्की वर्यः प्रधानमन्त्रिणे तस्य निर्वाचन विजयं सर्वकार निर्माणं च अधिकृत्य वर्धापनानि अयच्छत् भारतीय जनानां लाभाय निरन्तर सहयोगस्य इच्छां व्यक्तीकुर्वन् राष्ट्रपतिः जेलेंस्की आगामि वैश्विक शान्ति शिखर सम्मेलने भारतस्य सहभागित्वं महत्वपूर्णम् इति प्रत्यपादयत् संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। केरले राज्यसभायाः त्रिभ्यः निर्वाचनासनेभ्यः निर्वाचनस्य अधिसूचना प्रकाशिता अभवत्। सीपीआई दलस्य नेता विनय विश्वामः, सीपीआईएम दलस्य नेता इलामाराम करीमः, केसीएम दलस्य नेता जोस के मणिः इत्येतेषां कार्यकालं जुलाई मासस्य एकदिनांके समाप्स्यते। राज्यसभायाः महाराष्ट्रतः एकस्मै निर्वाचनासनाय अपि ह्यः उपनिर्वाचनस्य अधिसूचना प्रकाशिता जाता। ध्यानास्पदं वर्तते यत् एतत् निर्वाचनासनम् एनसीपी दलस्य नेता प्रफुल्ल पटेलः इत्यस्य त्यागपत्रानन्तरं रिक्तं संजातम् अस्ति। फ्रेंच ओपन टेनिस स्पर्धायां पुरुषैकल वर्गस्य उपान्त्यचक्रे क्रीडास्पर्धाः अद्य सायं फ्रांसस्य पेरिस नगरे क्रीडिष्यते। प्रथमोपान्त्यचक्रे तृतीय वरिता प्राप्तस्य स्पेन दलस्य कार्लोस अलकराज गार्फिया, द्वितीय वरिता प्राप्तम इटली दलस्य जेन्निक सिनरह इत्येतं सम्मुखी करिष्यति। सिक्किम क्रांतिकारी मोर्चा इत्यस्य संसदीय दलेन सर्वसम्मत्या भारतस्य प्रधानमन्त्रित्वेन नरेन्द्र मोदिनः समर्थनस्य निर्णयः स्वीकृतः अस्ति। मुख्यमन्त्रिणा प्रेम सिंह तमांगेन स्वकीय आधिकारिके सार्वजनिक सन्देशपटले इयं घोषणा कृता। तेन प्रोक्तं यत् अद्य मदीये आधिकारिकावासे मिंटोक गांग क्षेत्रे नवनिर्वाचितैः विधायकैः सह जाते उपवेशने वयं सर्वसम्मत्या भारतस्य प्रधानमन्त्रित्वेन नरेन्द्रमोदिने समर्थनं प्रदातुं निर्णयं स्वीकृतवन्तः। सः प्रोक्तवान् यत् तेन जूनमासस्य दशमदिनांके पलजोर इत्यत्र स्वकीयः शपथग्रहण समारोहः अपि निर्धारितः अस्ति। रिजर्व बैंकेन द्विमासिक मौद्रिक नीत्याः समीक्षायां रेपो इति क्रयानुबन्धं यथापूर्वं 6.5% एवं विधातुं निर्णयः स्वीकृतः अस्ति। शीर्ष बैंकेन निरन्तरं अष्टमवारं क्रयानुबन्धिमितं अधिकृत्य किमपि परिवर्तनं न कृतमस्ति। स्टैंडिंग डिपॉजिट फैसिलिटी एसडीएफ इत्यस्य मितिः 6.25% अपरत्र मार्जिनल स्टैंडिंग फैसिलिटी एमएसएफ बैंकम च इत्यनयोः मितिः 6.75% यथापूर्वं एवं विधातुं निर्णयः स्वीकृतः। जनता दलस्य अध्यक्षः अथ बिहारस्य मुख्यमंत्री नीतीशकुमारः अद्य नवदिल्ल्याः स्व आवासे संसदीय दलस्य उपवेशनं विहितवान्। उपवेशने अस्मिन् जेडीयू इति दलस्य लल्लन सिंहः, संजय कुमार झाः, अजय कुमार मण्डलः, विजयलक्ष्मी कुशवाह, कुशलेन्द्र कुमारः, रामनाथ ठाकुरः, देवेश चन्द्र ठाकुरः, सुनील कुमारः, लवली आनन्दः, गिरिधारी यादवः, अनिल हेगडे च सहभागं कृतवन्तः। निर्वाचनानन्तरं पश्चिम बंगालस्य विभिन्नेभ्यः क्षेत्रेभ्यः हिंसायाः प्रकरणम् आयाति। उत्तर बंगालस्य कूचबिहार जनपदस्य अंडरान फुलबरी ग्राम पंचायतस्य 88.1% मतदानकेन्द्रे जनाः टीएमसी इति दलस्य समर्थकान् विरुध्य प्रतिवेदनं कृतवन्तः यत् तैः पेयजलनलिकाः खण्डिताः। भारतीय ऋतुविज्ञान विभागेन आगामि दिवसेषु पूर्व भारते उत्तर प्रदेशे मध्यप्रदेशस्य केषुचित् क्षेत्रेषु उष्म तरंग प्रवाहः संभावितः। विभागेन झारखण्ड बिहार ओडिशा पंजाब हरियाणा राज्येषु अपि उष्म तरंग प्रवाहः संभावितः। मल्लक्रीडायां भारतस्य अमन सहरावतेन ह्यः सायं हंगरीदेशे बुडापेस्ट रैंकिंग सीरीज इत्यस्यां स्पर्धायां रजतपदकं विजितम् इति वार्ताः।